प्राकृत धर्मानाश्रयं प्राकृत निखिल धर्म रूपमिति निगम प्रतिपाद्यं यत् तत् शुद्धं साकृतिस्तौमि कलिकालतमच्छन्न दृष्टित्वाद्विदुषामपि संप्रत्य विषयस्तस्य महात्म्यं समुद्भुवि दयया निज महात्म्यं करिष्यन् प्रकटं हरिः वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकार हि तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा तन्नामाष्टोत्तरशतं प्रवक्षाम्यखिलाभृत् ऋषिरग्निकुमारस्तु नाम छन्दो जगत्यसौ श्रीकृष्णास्यं देवता च बीजं कारुणिकः प्रभु विनियोगो भक्तियोगः प्रतिबन्धविनाशने कृष्णाधरामृतास्वाद सिद्धिरत्र न संशयः आनन्दः परमानन्दः श्रीकृष्णास्यं कृपानिधि देवोद्धार प्रयत्नात्मा स्मृतिमात्रार्तिनाशनः श्रीभागवत गूढार्थ प्रकाशन परायणः साकार ब्रह्मवादैक स्थापको वेदपारगः माया वादनिराकर्ता सर्ववादिनिरासकृत् भक्तिमार्गाब्जमार्तण्ड स्त्रीक्षुद्राद्युद्धृतिक्षमः अङ्गीकृत्येव गोपीश वल्लभीकृतमानवः अङ्गीकृतौ समर्यादौ महाकारुणिको विभु अदेयदानदक्षश्च महोदार चरित्रवान् प्राकृतानुकृतिर्व्याज मोहितासुर मानुषः वैश्वानरो वल्लभाख्यः सद्रूपो हितक्रोत्सतां जनशिक्षाकृते कृष्ण भक्तिकृन् निखिलेष्टदः सर्वलक्षणसम्पन्नः श्रीकृष्णज्ञानदो गुरुः स्वानन्दतुन्दिलः पद्म दलायत विलोचन कृपादृग्वृष्टि संहृष्ट दासदासी प्रियः पति रोषदृक्पात संप्लुष्ट भक्तद्विट भक्त सेवित सुख सेव्यो दुराराध्यो दुर्लभं घ्रीसरोरुह उग्र प्रतापो वाक्सिधु पूरिताशेष सेवकः श्री भागवत पीयूष समुद्र मथन क्षमः तत्सारभूतरासस्त्री भावपूरीत विग्रह सान्निध्यमात्र दत्तश्री कृष्ण प्रेमाविमुक्तिदः रासलीलैकतात्पर्यः कृपयैतत्कथाप्रदः विरहानुभवैकार्थ सर्वत्यागोपदेशकः भक्त्याचारोपदेष्टाच कर्म मार्ग प्रवर्तकः यागादौ भक्ति मार्गैक साधनत्वोपदेशकः पूर्णानन्दः पूर्णकामो वाक्पतिर्विबुधेश्वरः कृष्णनाम सहस्रस्य वक्ता भक्तपरायणः भक्त्याचारोपदेशार्थ नानावाक्य निरूपकः स्वार्थोज्झिताखिल प्राण प्रियस्तादृश्यवेष्टितः स्वदासार्थकृताशेष साधन सर्वशक्तिदृक् भुवि भक्ति प्रचारैक कृते स्वान्वयकृत्पिता स्ववंशे स्थापिताशेष स्वमाहात्म्यः स्मयापः पतिव्रता पतिः पार लौकिकैः कदानकृत् निगूढ हृदयोऽनन्य भक्तेषु ज्ञापिताशयः उपासनादिमार्गाति मुग्धमोहनिवारकः भक्तिमार्गे सर्वमार्ग वैलक्षण्यानुभूतिकृत् पृथक्शरणमार्गोपदेष्टा श्रीकृष्णहार्दवित् प्रतिक्षण निकुञ्जस्थ लीलारस सुपूरितः तत्कथाक्षिप्तचित्तस्थ द्विस्मृतान्यो व्रज प्रियः प्रियव्रजस्थितिः पुष्टि लीलाकर्ता रह प्रियः भक्तेच्छापूरकः सर्वा ज्ञातलीलोऽतिमोहनः सर्वासक्तो भक्तमात्रा सक्तपतितपावनः स्वयशोगानसंहृष्ट हृदयाम्भोजविष्टरः यशः पीयूषलहरी प्लावितान्यरसः परः लीलामृतरसार्द्राद्रि कृताखिलशरीरभृत् गोवर्धन स्थित्युत्साह तल्लीला प्रेम पूरितः यज्ञ भोक्ता यज्ञकर्ता चतुर्वर्ग विशारदः सत्य प्रतिज्ञ स्त्रिगुणातीतो नय विशारदः स्वकीर्ति वर्धनस्तत्व सूत्रभाष्य प्रदर्शकः मायावादाख्यतूलाग्नि ब्रह्मवाद निरूपकः अप्राकृताखिलाकल्प भूषितः सहजस्मितः त्रिलोकी भूषणं भूमि भाग्यं सहजसुंदरः अशेष भक्त संप्रार्थ्य चरणाब्ज रजोधन इत्यानंद निदेह प्रोक्तं नामनामष्टोत्तरं शतं श्रद्धा विशुद्ध बुद्धेर्यः पठत्यनुदिनं जनः स तदेकमना सिद्धे मुक्तां प्राप्नोत्य संशयः तदप्राप्तौ वृथा मोक्षस्तदाप्तौ तद्गतार्थता अतः सर्वोत्तमं स्तोत्रं जप्यं कृष्णरसार्थिभिः।